सौधन्वनार्भवो मापभूत अस्मिन् हिवस्समने रत्नधेयम् गमन्तिन्द्रमनुवो मदासः आगन्नृगूनामिह रत्नधेयमभूत् सोमस्य सुषूदस्य प्रीतिः सुकृत्ययाजस्व पस्यया चाम् एकम् विचक्रचमसम् च दुर्धाचमसम् च दुर्धा सखेऽपि शिक्षेत्यब्रवीत अथैतवाजामृतस्य पन्थाम् गृहम् देवानामृभवस्वहस्ताः किम् मयस्विच्चमस एष आसयम् काव्येन चतुरो विचक्र अथा सुनध्वंसवनम् मदाय पातर्भवो मधुनः सोम्यस्य सत्याकर्तपितरायुमाना सत्याकर्तचमसम् देवपानम् सत्या हरिधनुतरावतष्टेन्द्रवाहाभवो वाजरत्नाः गोमस्सुनोत्यभिविद्वेयाह्नाम् जीव्रम् वाजासवनम् मदाय तस्मै रजिवृभवः सर्ववीरमादक्षतवृषणो मन्दसानाः प्रातः सुतमाविवो हर्यस्वमाध्यम् दिनम् सवनम् केवलम् ते स मृभिः पिबस्वरत्नजेभिः सखीन्द्रजगृहे सुकृत्या ये देवासो अभवता सुकृत्या सेनाजिवेदधीरिविनिषेद ते रत्नम् धातसवसो न पातः सौधन्वना अभवता मृता सह यत्तृतीयम् समानम् रत्नधेयमकृणुध्वम् सुपस्यासु हस्ताः तदृभवः परिषिक्तम् वजेदत्सम्मदेभिरिन्द्रियेभिः पिबध्वम् अनश्रो जातो अनभिसुरुक्त्यो रथस्त्रिचक्रः परिवर्तते रजाः महत्तद्वो देव्यस्य प्रवाचनम् द्यामृभवः पृथिवीम् यच्च पुष्यत रथये चक्रः सुहृदम् सुचेतसो विह्वरम् तम् मनसस्परिध्यया ताम् ऊन्वास्य समानस्य पीतया वो वाजार्भवो वेदयामसि तद्वो वाजार्भवः सुप्रवाचनम् देवेषु विद्भो अभवन्महेश्वरम् जिह्वीयत्सन्ता पितरा सनाजुरा पुनर्जुमाना च रथा यतक्षत एकम् विचक्रचमसम् चतुर्वजम् निश्चर्म नो कामरिणीतधीतिभिः अथा देवेष्वमृतत्वमानस सृष्टिवाजार्भवस्तद्वभुक्त्यम् ऋतो रजप्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नराः विध्वदष्टो विदधेषु प्रवाच्योऽयम् देवासोपधासविचर्षणिः वाज्यर्वासर्षिर्वचस्य जासशूरो अस्तावृतनासु दुष्टराः स राजस्पोषम् स सुवीर्यम् दधेयम् वाजो विभ्वाङ्गृभवोयमावीषु श्रेष्ठम् बह्वेशो अधीदायिदर्शतम् स्तोमो वाजार्भवस्तञ्जूजुष्टन धीरासो हिष्ठा कवयो विपश्चितस्तान्वजेना ब्रह्मणा वेदयामसि यूयमस्मभ्यम् धिषणाभ्यस्वरि विद्वांसो विश्वानर्यानि भोजना युमन्तम् वाजम् मृष सुष्ममुत्तममानो रजिमृभवस्तक्षतावजाः इह प्रजामिह रयिम् नराणायिह श्रवो वीरवत्तक्षतानः येन वयम् चितयेमाच्चन्यान्तम् वाजम् चित्रविभवो ददानः उप नो वाजा अध्वरे भुक्षा देवा जातपतिभिर्देवजानैः यथा यज्ञम् मनुषो भिक्ष्वा आसुदधिध्वेरन् वासुदिनेष्वन्नाम् देवो हृदे मनसे सन्तु यज्ञायुष्टासो अद्य हृदयम् निरोगुः प्रवस्सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः श्रीनायम् देवहीतम् यथा वस्तोमो बाजारभक्षणो ददेवाः जुह्वे मानुष्वदुपरासु भिक्षु जुष्मे स चा बृहद्रीवेषु सोमम् ीयो अस्मासुजद्रथायि भूतायस्य प्रावादिनस्य निष्काः इन्द्रस्य सूनासवसो न पातो नो वश्चेत्यग्रियम् वदाय ऋभुवृक्षणो रयिम् वाजे वाजिन्तमञ्जुजम् इन्द्रस्वन्द्रम् हवामहे सदा सातमवश्विनम् सेदृभवोजमवथ यूयमिन्द्रश्च मत्यम् सधीभिरस्तु सनीता मेधसा तासो अर्वता विनो वाचारुभुक्षणः पतश्चीतनजष्टवे अस्मभ्यम् सूरयस्तुता विश्वासास्तरीषणि सन्नो वाचारुभुक्षणीन्द्रासत्यानयम् समस्वम् चर्षणेभ्यः पुरुषस्तमघत्तये उतो इमाम् दात्रा सन्धिपूर्वाजा पूर्वभ्यस्तृसदस्यम् निदोषे क्षेत्रासाम् ददतुर्वरासाम् घनन्दस्युभ्यो अभिभूतिमुग्रम् उत वाजिनम् पुरुनिषिद्वानन्दधिक्रामोदर्विश्वकृष्टिम् यज्ञम् सेनम् प्रोषितप्सु मासुम् सकृत्य मर्यो नृपतिनसूरम् यम् सेवनः प्रपदे भद्रवन्तम् विश्वः पूर्वदिहर्षमाणः पद्भिर्गृध्यन्तम् मेधयम् नसूरम् रथकुलम् वाचामि भद्रजनन्तम् यस्मारुन्धानो गध्या समत्सु सनूतरश्चरति गोषु गच्छन् आविर्वेजीगो विदधा निजिक्यतिरो रतिम् पर्याप आयोः उदस्मैनम् वस्रमधिन्नताजुमनुक्रोधम् दीक्षितयो भरेषु नीचायमानम् च सूरिन्नस्येनम् स्वसाच्छापसुमच्छयूथम् उत तस्मात् प्रथमः स ऋष्यन्निमे वेदिश्रेणीभिरधानाम् स्वजम् कृण्वानो जन्यो न शुभ्वा रेणुम् रेरीहत्किरणम् ददस्वान् उतस्य वाजी सहूरिर्दा वासुश्रूषमाणस्तन्वासुमर्ये तुरम् यदिषु तुरजन् ऋषिव्योधिब्रवोः कीरते रेणुवृञ्जन् उदस्मास्य तञ्जतोरीभद्योर्विघायतो अभियुजो भयन्ते यदा सहस्रमभिषीपयोधिदुर्वत्त्वस्मा भवति भीमरिञ्जन् उदस्मास्य पनयन्ति जनाः ज्योतिम् कृष्टिप्रो अभिभूतिमासोः उतैनमावः समिते वियन्तः परादधिक्रासरत्सहस्रैः आदधिक्रासवासा पञ्च गृष्टीः सूर्य इव ज्योतिषापस्तदान सहस्रसा स दशा भाज्यर्वाः पृणक्तु मध्वासमिमावचांसि आसुन्दधिक्रान्तमनुष्टवामधिपस्पृथिव्या उदचक्किराम उच्यन्तीर्मामुषसः सूदयन्त्वति विश्वानि दुरितानि वर्षन् महस्तर्कर्मर्वकृतप्रादधिक्राम्नः पुरुवारस्य विष्णाः यम् पूरुभ्यो दीदिमाम् सन्नाग्निम् ददधर्मित्रावरुणातदूरिम् यो अश्वस्य दधिक्राम्नो अकाजीत् समिद्धे अग्नावुषसो व्यूष्टौ अनागसन्तमदीति कृणोदसमित्रेण वरुणेन सजोषाः दधिक्राम्नयिषभूर्जो महोजतमन्मयि मरुताम् नाम भद्रम् स स्वस्तजेवरूनम् विद्वमग्निम् हवामह इन्द्रम् वज्रबाहुम् इन्द्रमिवे जुभजे विह्वायन्त उदीरा न यज्ञमूपप्रयन्ताः दधिक्रामसूदनम् मत्याय ददधुर्मित्रावरुणानो अस्मम् दधिक्राम्नो अकारिणम् जिष्णोरश्वस्य बालिनाः सुरभिनो मुखागरत्प्रणायोंषिदारिषदे दधिक्राम्नयिदनुसर्किरामविश्वालिन्मामृषसूदयन्तु अपामग्ने ऋषसूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः सत्त्वाभरिषोगभिषोदो वन्यसच्छ्रवस्यादिषवृषसस्तुरन्यसत् सत्यो द्रवोद्रवरः परङ्गरोदधिक्रामेषमूर्जम् स्वर्जनत् ऋतस्मास्य द्रवदस्तुरन्यतः पर्णन्नवेरनुपातिप्रकर्धिनाः श्येनस्येवध्रजतो अङ्गम् परीदधिक्राम्नः सहोर्जातरित्रतः उतस्य बाजी क्षीपणिम् दूरण्यति ग्रीवायाम् बद्धो अभिकक्ष आसनि क्रतुन्दधिक्रा अनु सन्तवीत्वत्पथा मङ्गाम् स्यन्वापनीभणत् हंसूजिषद्वसूरन्तरिक्षसद्धोता वे जिषदतिर्दुरो नसत् नृषद्वसदृदसद्यो मसदज्जा गोजादृतजा अद्रिजादृतम् इन्द्राको वाम् वरुणा सुम्नमाः पस्तोमो हविष्माम् अमृतो न होता यो वाम् हृदिः कदूमाम् अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान् इन्द्राहयो वरुणा चक्र आपी देवो मत्तः सख्याय प्रयस्वान् सहन्ति वृत्रा स मिथेषु शत्रो नवोभिर्वा महद्भिः सप्रसृन्दे इन्द्राहरत्नम् वरुणाधेष्ठेच्छानृभ्यः समानेभ्यस्ता यदि सखाय सख्याय सोमैः सुतेभिः स्वप्रयसा मातरीते इन्द्रायुवम् वरुणादिज्यमस्मिन्नो जिष्ठमुग्रानिव जिष्ठम् वज्रम् यो नो दुरेवो मृगदर्दभीतिस्तस्मिन्निमाथामभिभूत्योजाः इन्द्रायुवम् वरुणा भूतमस्याधिय प्रेतारा वृषभेव धेनोः सानो दुहीयज्ञवसेवगत्वी सहस्रधारापयसा मही गौः लोके हितेतराय उर्वरा सुसूरोषीके वृषरश्च पुंसे इन्द्रानो अत्र वरुणास्यातामवोधस्मापरीतज्ञायाम् युवामिध्यवसे पूर्व्याय परिप्रभूति गविषस्वापि ीमहे सख्याय प्रियाय सूरामम् हृष्ठा पितरेव शम्भु तावाम् धियो वसेवा जगन्ती राजन्न जग्मुर्यभयोः सूदानु श्रियेण गावसोमस्तुरिन्द्रम् गिरो वरुणम् मे मनीषाः इमायिन्द्रम् वरुणम् मे मनीषाग्मन्नुभद्रवीणमिच्छमानाः उपेमस्तुर्ज्योष्टारजिवस्वो रघ्वीरिवस्रवसो भिक्षमाणाः अश्वस्यत्मनारथ्यस्य पुष्टेर्नित्यस्य राजः पदायस्याम ताचक्राणाभूतजनव्यसीभिरस्मत्कारायो निजुतस्य जन्ताम् आनो बृहन्ता बृहतीभिरूती इन्द्रजातम् वरुणवाजसातौ यद्यज्यमः प्रदानासु प्रक्रीडान् तस्य वाम् श्याम सनितार आजेः मम द्विता राष्ट्राम् क्षत्रियस्य विश्वायोर्विश्वे अमृताधिधानः कृतम् सजम् देवरूणस्य देवाराजामिकृष्टे रूपमस्य वव्रेः अहम् राजा वरुणो मह्यन्तान्यसूर्याणि प्रथमाधारयन्त कृतम् सचन्ते वरुणस्य देवादाजामि कृष्णे रूपमस्य वव्रेः अहमिन्द्रो वरुणस्तेम हिर्गोर्वीगभीरेरजसि सुमेके त्वष्टेव विश्वाभुवनानि विद्वान्समैरजम् रोदसी धारयम् च अहमपोऽभिन्वमुक्षमानाधारयन्ति वंसदनृतस्य ऋतेन पुत्रो अदितेर्धृतभूतत्रिधातु प्रथयद्विभूम मान्नरस्वस्वा वाजयम् तो माम् मृता समरणे हमन्ते कृणाम् न्याजम् मघवाघमेन्द्रयम्भूत्योजाः अहन्ता विश्वाजगरन्नगम् मादेव्यम् सहो वरते अप्रदीतम् यन्मासो मासो मम धन्यदुःखो भेभजे ते रजसि अपारे विदुष्टे विश्वाभुवनानि कश्चिदा प्रब्रवीषिवरूणाय वेध त्वम् वृत्राणि सन्विषेज घन्वान् त्वम् वृताङ्गारिणा इन्द्रसिन्धून् अस्माकमत्र पितरस्तासन् सप्तर्षयो दौर्गहे बध्यमाने तराजन्तत्र सदस्यमस्या इन्द्रन्न वृत्रदुरमर्धदेवम् पुरुकुत्सानीहि वामदा सद्धव्येभिरिन्द्रावर्णानमोभिः अथा राजानन्द्रसदस्यमस्या वृत्रहणम् ददसुरर्धदेवम् राजा वयम् स समाम् सोमदेव हव्येन देवाहवसे न गावाः ताम् धेनुमिन्द्रावरुणायुमन्नो विश्वाहा धत्तमनपस्फुरन्तीम् कपुस्रवत्कतमो यज्ञियानाम् मन्दारो देवः कतमो जुषाते कस्येमाम् देवी ममृतेषु प्रेष्ठाम् हृदिश्रेष्ठामसुष्ठुम् सुहव्याम् को मृलादिकतम आगमिष्टो देवानामुकतमः सम्भविष्टः रथम् कमाहुर्द्रवदस्वमासुञ्जम् सूर्यस्य दुहिता वृणीत मक्षोहिष्मागच्छथ जीवतोद्योनिन्द्रो न सत्यम् परितज्ञायाम् इवाजाता दिव्यासु पर्णाकया सचीनाम् भवतः सचिष्ठा कामाम् भूतुपमादिष्कया नास्विनागमथो हूयमाना को वाम् महश्चिद्यजसो अभीकपुरुष्यतम् माध्वीरस्रानभूति उरुहाम् रथः परिरक्षतज्ञामायत्स मुद्रानभिवर्तदेवाम् मध्वा माध्वीमधूवाम् पृषायन्यत्स्रीम् वाम् वृक्षो भुरजम् भक्वाः सिन्धुर्गवाम् रसया सिञ्जरस्वाम् घृणामयो रुषासः परिग्मन् तदुर्वामजिरम् चेति यानम् येन पथि भवतः सूर्यायाः इहेयद्वाम् समनापवृक्षे तेजमस्मे सुमतिर्वाजरत्ना वृक्ष्यतम् जरिदारम् युवम् हस्कामो नासत्यायुभद्रिक् तम् वाम् रथम् वयमद्याहूवेम पृथक्तयमश्विना सङ्गलिङ्गोः यः सूर्याम् वहति बन्धुरायुर्विर्वाहसम्भुरुतमम् वसूयुम् युवाम् सृजमश्विना देवताताम् दिवो न पातावनथः सजीभिः युवोर्वपुरभिवृक्षः सृजम् देवहम् जियत्कगुहासो रथे वाम् को वा मद्याकारते रातहम् यभूतये वासुतपेयाय वार्कैः ऋतस्य वा मनुषे पूर्व्या जनमो ये मानो अश्विनावर्तत् हिरण्यजेन पुरुभूरथे नेमम् यज्ञम् ना सत्योपजातम् इवाथयिन्मधूनः सोम्यस्य दधतो रत्नम् विधते जनाय आनो जातम् दिवो अच्छा पृथिव्या हिरण्येन सुवृता रथेन मा वा मन्ये निज मन्दे वयन्तस्मै यद्धतेनाभिः पूर्व्या वा नूनोदयम् पूर्वीरम् मृगन्तम् दस्रामि माधामुभयेष्वस्मे नरो यद्वामश्विना स्तोममामन् सधस्तूतिमादमीलासो अग्मन् इहेयद्वाम् समना वृक्षे चेजमस्मे सुमतिर्वाजरत्ना उरुष्यतम् जरितारम् यमम् वसृतकामो ना सत्यायुभद्रिग् एतस्य भानुमृति यत्ति युज्यते रथमरिज्मा दिवो अस्य सानवि वृक्षासोऽस्मिन् मिथुना अधितृजो धृतिस्तुरीजो मधुनो विरप्सते उद्वाम् वृक्षासो मधुमन्तजीरथे रथा अश्वासमुषसो व्यूष्टिषु अपोर्नुबन्धस्तमहापरीवृतम् स्वा अन्नशुक्रम् तन्वन्तारजाः मध्वपिबतम् मधुते वीरासवीरुतप्रियम् मधूने युञ्जाथाम्रथम् आवर्तनिम् मधूना जिन्वधस्पतो धृतिम् वहेधे मधुमन्तमश्विना हंसा सोजे वाम् मधुमन्तो अश्रुधो हिरण्यवर्णा भुवुषद्बुधाः उदप्रतो मन्दिनो मन्दिनिस्पृशो मध्वो नवक्षस्रवनानि गच्छतः स्वध्वरा सो मधुमन्तो अग्नजुस्राचरन्ध्रे प्रतिवस्तो रश्विना यन्निक्तहस्तस्तरणिर्मितक्षणसोमम् सुरावमधुमन्तमद्रीभिः आके निपासो अहभिर्दविद्वधस्वा अर्णशुक्रम् तन्वन्तारजाः सूरश्चिदस्वान्यजानयीयते विश्वाङ्मनुस्वधया चेतथस्वथः रवामवोचमश्विना धियन्धारथस्वस्वो अजरोजो अस्ति येन सद्यः परिरजांसि जातो हविष्मन्तम् तरणिम् भोजमच्छ अग्रम् पिबा मधूनाम् सुतम् वा ज्योतिमिष्टिषु त्वम् हि पूर्वपासि शरेणानो अभिष्टेभिर्नियत्वा इन्द्रसारथिः वायो सुतस्य द्रम्पतम् आवाम् सहस्रम् हर जगिन्द्रवायु अभिप्रयाः वहन्तु सोमपीतये रथम् हिरण्यबन्धुरमिन्द्रवायुस्वध्वरम् आयिष्ठातो दिविस्पृशम् रथेन पृथुपाय साधा स्वाम् सर्वागच्छतम् इन्द्रवायु जिहागतम् इन्द्रवायु अयम् सुतस्तम् देवेभिः सजोषसा विवादम् दासुषो गृहे इह प्रजानमस्तु वामिन्द्रवायोऽभिमोचनम् इह वाम् सोमपीतये वायो शुक्रो आयामि ते मध्वो अग्रन्थिविष्टिषु आयाहि सोमपीतये स्वार्घो देवनियुत्वता इन्द्रश्च वायवेषाम् सोमानाम् भीतिमर्हतः युवाभिहीयन्तीन्द्रवो निर्नमापो न सध्यग् वायविन्द्रश्च शुष्किना सरथम् सवसस्पति निजित्वम् तानभूतजायातम् सोमपीतये या वाम् सन्ति पुरस्पृहो नियुतो धासुषे नरा अस्मेताजज्ञवाघसेन्द्रवायुनियच्छतम् विहिहोत्रा अवीता विपोनरायो अर्यः वायवा चन्द्रेण रथेन याहि सुतस्य पीतये निर्युवानो असस्तीर्नियुक्त्वा इन्द्रसारथिः वायवा चन्द्रेण रथेन याहि सुतस्य पीतये अनु कृष्णे वसुधिति ये माते विश्वपेशसा वायवा चन्द्रेण रथेन याहि सुतस्य पीतये महम् कृत्वा मनोयुजो युक्तासो नवतिर्नव वायमा चन्द्रेण रथेन जाहि सुतस्य पीतये वायो शतम् हरीणाम् विवस्वपोष्याणाम् उत वा ते सहस्रिणो रथायातुपाजसा इदम् वा भास्ये हविः प्रियमिन्द्रा बृहस्पति उक्थम् मतश्च सस्यते अयम् वाम् परिषिच्यते सोमा इन्द्रा बृहस्पति चारुर्मधाय पीतये आना इन्द्रा बृहस्पति इहमिन्द्रश्च गच्छतम् सोमपा सोम पीतये अस्मे इन्द्रा बृहस्पति धत्तम् सदग्निम् अश्वावन्तम् सहस्रिणम् इन्द्रा बृहस्पतिः भयम् सुते गीर्भिर्भवामहे अस्य सोमस्य पीतये सोमामिन्द्रा बृहस्पतिर्गतम् दाशुषो गृहे मातये धाम् ततोऽगसा यस्तस्तम्भतः सा विज्ञोहन्ताम् बृहस्पतिस्त्रिषधस्तोरवेण कम् रत्ना सर्ष ज्योतिध्यानाः पुरो विप्रादधे मन्द्रजिह्वम् धुनेत यः सुप्रकेतम् मदम् तो बृहस्पते अभियेनस्तदस्रे वृषन्तम् शिवप्रमलब्धमूर्वम् बृहस्पते रक्षतादस्य योनिम् बृहस्पते यापरमापरापतदातरृतस्पृशोनिषेदुः तुभ्यम् खादावता अद्रिदुग्धामध्वश्चोदन्त्यभिरो विरत्सम् बृहस्पतिः प्रथमम् जायमानो महो ज्योतिषः परमे व्योमन् सप्तास्यस्तु विजातो रवेणमि सप्तरश्मिरथमस्तमांसि सृष्टुभासर्क्वता गणेन बलम् रुरोचफलिकम् रवेण बृहस्पतिरुसृजा हव्यसूदः कलिक्रदद्वावसतीरुदायत् एवा पित्रे विश्वदेवानवृष्णे यज्ञैर्वीधे मनमसा हविर्भिः बृहस्पते सुप्रजा वीरवन्तो वयम् स्यामपदयोरजीणाम् स यद्राजा प्रतिजन्यानि विश्वा सुष्मेण तस्थाभिवीर्येण बृहस्पतिं यः सुभृतम् विहति वल्भूयति वन्दते पूर्वभागम् स यक्षेदिशुधितवोकसि स्वे तस्मायिला बिन्वते विश्वदानी तस्मै विशस्वयमेवानमन्ते यस्मिन् ब्रह्माराजनि पूर्वजेति अप्रतीतो जयति सन्धराणि प्रतिजन्यान्युदयासरन्या अवस्य वेजोपरि वक्रोति ब्रह्मणे राजातमवन्ति देवाः इन्द्रश्च सोमम् पिबतम् बृहस्पतेऽस्मिन् यज्ञे मन्दसानावृषण्वसु आवाम् विशन्त्विन्दवस्वाभुगोऽस्मेरयम् सर्ववीरम् नियच्छतम् बृहस्पत इन्द्रवर्धरम् नः सदासावाम् सुमतिर्भूत्वस्मे अभिष्टम् धियो जिगृतम् पुरम् धीर्जस्तमर्यो वनुषामरातीः भद्रन्नो अपि वातयमनाः ओ हरिः ओ इदमुच्चयत्पूरुतमम् पुरस्ताज्योतिस्तमसो वयुनादस्तात् नूनम् दिवो दुहितरो विभाजेर्गानुषसोजनाय अस्तूरुचित्रामृतः पुरस्तान्वितायीवस्वरवोद्धरेषु यो गृहस्य तमसो द्वारोच्छन्दीरभ्राञ्चुतयः पावकाः उच्छन्दीरद्वितीरयम् कभोगान् राधो देहा जोषसो मघोनीः अजित्रे अन्नः पणयः स सन्तु बुध्यमानास्तमसो विमध्ये सनजो नमो वाजामो बभूयादूरसो वो अद्य येनानवग्वे अङ्गीरे दसग्वे सप्तास्येरेवतीरेवदूढ यूयम् हि देवीर्वृतयुग्भिरस्वैः परिप्रजा च भुवनानि सद्यः प्रबोधयम् दीरुषसन्दनम् जिवाच्चतुष्पाच्चरथाय जीवम् स्मिदासाम् कथमा पूराणीयया विधानाभिधुर्भूणा सुमयच्छभ्रावृषदशरणम् जनविज्ञायन्ते सदृशीरदुर्याः साघाता भद्रावृषदः पुरासूरभिष्टिज्ञम् नादृतजातसत्याः श्रीजानः समानमुक्थैस्तु मञ्चम् सङ्ग्रवीणम् सद्याप ताचरन्ति समना पुरस्तात् समानतः समनापप्रधानाः ऋतस्य देवीः सोबुधानागवान्नसर्गा पुषसो जनन्ते तायिन्वे एव स मनास मानीलनीतवर्णाभुषसश्चरन्ति गूहन्तीरभ्रमसि तमृषद्भिः शुक्रा सर्वभिश्रुतयोरुचाराः त्रयीन्द्रीवो दुहितरोऽपि भातेर्प्रजावन्तम् यच्छता स्मासु देवीः शोनादावः प्रतिबुध्यमानाः सुवीर्घस्य पतयस्याम तद्वो दिवो दिवितरो विभातिरुपब्रुवंशसो यज्ञकेतुः वयम् स्यामयशसो जनेषु तद्यौश्च धत्ताम् पृथिवी च देवी प्रतिष्यासूनरीजनीम् युच्छन्ती परिश्वसु दिवो दर्शितुहिता अश्वेव चित्रारुषी माता गवामृतापरी सखा भूदश्विनोः रुषाः उदसखास्यश्विनोः ऋतमाता गवामसि ऋतौषोभस्व ईशिषे भयद्वेष सन्द्वातिकित्सूनृतावरि प्रतिस्तोमैरभुस्महि प्रतिभद्राद्रक्षदगवाम् सर्गानरस्मजाः पोषा प्रागुरुद्रयाः आपपृषे विभावरिव्या भज्योतिषातमाः पुषो अनुस्वधामव आद्यान्तनोषिरश्मिभिरान्तरिक्षमुरुप्रियम् उषः शुक्रेण ज्योतिषाः तद्देवस्य स पितुर्वार्यम् महद्वृणीमहे असुरस्य प्रचेतसः छद्दिर्येण दासुषे यच्छदित्मना तन्नो महा उदयान् देवो अत्युभिः दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गम् द्रापिम् प्रति मुञ्चते कविः विचक्षणः प्रचयन्नावृणन्नुर्वजीनरत्सविदासुम्नमुख्यम् आप्रारजाम् स दिव्यानि पार्थिवा श्लोकम् देवः कृणुते स्वायधर्मणे प्रबाहु अस्रात्सविता सवीमनि निवेशयन् प्रसुवन्नक्तुभिर्जगत् अदाभ्यो भुवनानि प्रजाकसद्व्रतानि देवः सविताभिरक्षते प्रास्राग्बाहु भुवनस्य प्रजाभ्यो धृतम् व्रतो महो अध्वस्य राजति निरन्तरिक्षम् सवितामहि त्वरात्रीलांसि परिभूस्त्रीणि रोचना तिस्रो दिवः पृथिवीस्तिस्रयन्वतिस्त्रभिर्वृतैरभिनो रक्षदित्मनाः बृहत्सम् न प्रसभीता निवेश नो जगतस्थातुर्भयस्यो वशी सो देवस्य विदासम् न यच्छत्वस्मेक्षयाय त्रिवरूथमम् हसः आगन् देवऋतुभिर्वर्ध दुःखयम् दधातु नः स विदासु प्रजामिषम् स सराक्षराभिरहभिश्चजिन्वतु प्रजावन्तम् रजिमस्मे समिन्वतु अभूर्देवस्य पितावञ्जोनुमजिदानीमह्न उपवाच्यो नृभिः ज्योरत्नाभजिमानवेभ्यः श्रेष्ठम् नो अत्र द्रवीणम् यथा दधत् देवेभ्यो हि प्रथमम् यज्ञेभ्यो वृधत्वम् सुवसि भागमुत्तमम् आविद्यामानम् सवितर्व्यो नृजेनुचीनाजीवितामानुषेभ्यः अचित्तीयच्च कृमादैव्येजने दीनैर्दक्षैः प्रभूतिपूरुषत्वता देवेषु च सवितर्मानुषेषु दत्त्वम् न अत्र सुमताजनागसः न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वम् भुवनम् धारयिष्यति यत्पृथिव्यापरिमन्नास्वम् गुरिर्वश्मन् दिवः सुमति सत्यमस्य तत् इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयाङ्गेभ्यः सुमसि पस्यावतः यथा यथा पतयन्तो विजे विरजेवैव तस्थुः सवितः समायते एते त्रिरहन् सवितः समासो दिवे दिवे सौभगमासुमन्ति इन्द्राद्यावा पृथिवी सिन्धुरद्भिरादित्यैर्नो अदितिः शर्माजम् सत् कोपस्त्रातापसवः कोपरूताद्यावा भूमि अदितेत्रासीथान्नः सहीयसो वर्णवेत्रवर्थात् कोपोध्वरे वरीबोधादिदेवाः प्रजेधामानि पूर्व्याण्यर्चान्वियदुच्छान्वियोतारो अमूराः विधातारो विदेतधुरजस्रारुतधीतयोरुचन्दधस्माः प्रपस्या आमदीतिम् सिन्धुमर्कैः स्वस्ति वीरे सख्याय देवीम् उभेयथा नो अहनि निपातपुषासा नक्ताः करतामलब्धे व्यमावरुणश्च जिवन्था विषस्पतिः सुमितम् गातुमग्निः इन्द्रा विष्णो नृवधृढस्तवा नाशर्म नो यन्तमम मद्वरूथम् आपर्वतस्य मरुतामपांसि देवस्य त्रातुरबृहस्य आत्मनिर्जन्यारम्भासो मित्रियादुतनपुरुष्येत् नूरोदसी अहीना बुद्ध्येनस्तु वेदरेभिरप्येभिरिष्टैः समुद्रन्न सञ्चरणे सनिष्यवो घर्मस्वरसो नद्यो अपव्रन् देवैर्नो देव्यदिनिपातु देवस्त्रागतामप्रयुच्छन् न हि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियंसान् भग्नेः अग्निरेशेव सव्यस्याग्निर्महस्सौभगस्य तान्यस्मभ्यम् रासते पुषो मघोन्यवहसूते मार्या पुरु अस्मभ्यम् वाजिनीमदि तत्सुनस्य विदा भगो वरु नो मित्रो अर्यमा इन्द्रो नो राधसागमत् महीद्यावा पृथिवी जिहज्येष्ठे रुचा भवताम् सुजयद्भिरर्कैः यत्सेम्बरिष्ठे बृहदेवि मिन्वन्मद्धोक्षापप्रधानेभिरेवैः देवी देवेभिर्यजते यदत्रैरमीनतीकस्थवृक्षमाणे ऋतावीयद्रुहा देवपुत्रे यज्ञस्य नेत्री सुजयद्भिरर्कैः स यत्सभावनेश्वासयजिमेद्या वा पृथिवी जजान पूर्वीगभीरेदयसीमेके अवंसे धीरः सच्चासमीरत् नूरोदसी बृहद्भिर्न नोपरूथैः पत्नीमद्भिर्षयन्ति सजोषाः पुरुचे विश्वे यजते निपातम् धियास्याः मरथ्यः सदासाः प्रभाम् महिद्यवे अभ्युपस्तुतिम् भरामहे शुचिरुपप्रशस्तये पुनाने तन्वामिथस्वेन दक्षेण राजतः ऊह्यादे सनाधृतम् मही विद्वस्य साधतस्तरम् तीविप्रतीहृतम् परियज्ञम् निषेदतु क्षेत्रस्य पतिना वयम् हितेने भजयामसि गामस्वम् पोषयित्वा सनो मृळादीदृशे क्षेत्रस्य पते मधुमन्दमूर्तिम् धेनुरीवपयो अस्मासु धुक्ष्व मधुश्रुतम् घृतमेव सुपूतमृतस्य नः पतयो मृळयन्तु मधुमतीरोषधीर्द्यावापो मधुमन्नो भवत्वन्तरिक्षम् क्षेत्रस्य पतिर्मधुमान्नो अस्मरिष्यन्तो अन्वेलम् चरेण सुनम् वाहासुनम् नरः सुनम् क्लेशतुलाङ्गलम् सुनम् वरत्राबध्यन्ताम् सुनमष्टामुदिङ्गय सुनासीराम् वाचम् यद्दिविचक्रसुपयाः येने मामुपासिञ्चतम् अर्वाची सुभगे भवसि देवन्दामहे त्वा यथा नः सुभगासि यथा नः सुफलासि इन्द्रस्यीताम् निगृह्णातुताम् पूषातु यच्छतु सा नः पयस्वती दुहामुत्तरामुत्तराम् समाम् सुनम् नः पादाविक्रेषन्तु भूमिम् सुनम् कीलासा अभियन्तु बाहैः सुनम् पर्जन्यो मधूनापयोभिः सुनाधीरा सुनमस्मासु धत्ताम्।